इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः डॉक्टर गणेश हेगडे। अथ वार्ताः। प्रधानमन्त्री श्रीनरेन्द्रमोदी अद्य तमिलनाडुराज्यस्य कोयम्बटूर नगरे दक्षिणभारतीय प्राकृतिक कृषि शिखर सम्मेलनस्य उद्घाटनं करिष्यति। शिखरसम्मेलनस्य उद्देश्यमिदं वर्तते यत् स्वर्गीयेन नम्मालवर नामकेन जैविक कृषकेन प्रचारित प्राकृतिक कृषिप्रथायाः विश्वे प्रदर्शन पुरस्सरं प्रचारः। अस्मिन् शिखरसम्मेलने 5,000 कृषकाः उपस्थिताः भविष्यन्ति इत्यपेक्षा वर्तते। प्रधानमन्त्री प्राकृतिक कृष्याभ्यासं कुर्वद्भिः कृषकैः सह संवादं करिष्यति। आयोजने 10 अनुकरणीय श्रेष्ठ कृषकाणां सम्माननमपि करिष्यति। सः 9 कोटि कृषकाणां कृते 18,000 कोटि रूप्यकाणां 21वें प्रधानमन्त्री कृषक सम्मानन धनराशि खण्डमपि विमोचयिष्यति। त्रिदिवसीयं कृषि शिखर सम्मेलनं नवम्बर 21 दिनांके समाप्तं भविष्यति। विदेशमन्त्री डॉ एस जयशंकरः सबलं प्रतिपादितवान् यत् आतंकवाद विरुद्धं स्वनागरिकाणां रक्षणं भारतस्य सिद्धः अधिकारः अस्ति, अपि च तस्य प्रयोगं अग्रेपि करिष्यति। रशियादेशस्य मास्को नगरे शंघाई सहकार संघटनस्य सर्वकार प्रमुख परिषदं सम्बोधयन् डॉ जयशंकरः अवदत् यत् विश्वे आतंकवादं विरुध्य शून्य सहिष्णुता प्रदर्शितव्या। विदेशमन्त्री अवदत् यत् जलवायु परिवर्तनेन महामारीभिः अन्य संकटैः च ग्रस्ते अस्मिन् काले मानवीय सहकार्यं महत्वपूर्णं वर्तते। सः प्रकाशितवान् यत् सभ्य नागरिकत्वेन भारतं दृढतया विश्वसिति यत् कस्यचित् वास्तविक सम्बन्धस्य मूलं जनजनेषु आदानप्रदानं भवति। डॉ जयशंकरः अवदत् यत् भारतस्य मतमिदं वर्तते यत् शंघाई सहकार संघटनं परिवर्तनशील वैश्विक परिदृश्यस्य आनुकूल्यमनुसृत्य विस्तरितां कार्यसूचीं विकसितुं स्वकार्य पद्धतिषु परिवर्तनञ्च कर्तुम् अर्हति। बिहार राज्ये एनडीए घटकदलस्य नवनिर्वाचित विधायकानां संगोष्ठी अद्य पटनानगरे भविष्यति। अस्यां संगोष्ठ्यां भारतीय जनता पार्टी, संयुक्त जनता दलम्, लोक जनशक्ति पार्टी, रामविलासः, हिन्दुस्तानी आवाम मोर्चा, राष्ट्रिय लोकमोर्चा चेति राष्ट्रिय प्रजातांत्रिक घटबंधनस्य एनडीए इत्यस्य पञ्चदलानां सर्वेपि द्युत्तर 200 विधायकाः मिलित्वा स्वनेतारं परिचिन्वन्ति। भाजपा संसदीय मण्डलेन भाजपा विधायक दलस्य नेतुः निर्वाचनस्य कृते उत्तरप्रदेशस्य उपमुख्यमन्त्री केशव प्रसाद मौर्यः पर्यवेक्षकत्वेन नियुक्तः। तदतिरिक्तं केन्द्रीय मन्त्री अर्जुन राम मेघवालः, पूर्व केन्द्रीय मन्त्री साध्वी निरंजन ज्योतिः च सह पर्यवेक्षकत्वेन नियुक्तौ स्तः। सूचना प्रसारण मन्त्रालयेन लालकिला इति रक्तदुर्ग कार बम्ब विस्फोटस्य घटनायाः सम्बद्धानां संवेदनशील सामग्रीणां दूरप्रसारस्य विषये सर्वेभ्यः निजी उपग्रह दूरदर्शन माध्यमेभ्यः परामर्शः प्रकाशितः। मन्त्रालयेन सूचना प्राप्ता वर्तते यत् केचन समाचारमाध्यमाः कार्बम्ब विस्फोट प्रकरणे सम्बद्धानां कथितानां व्यक्तीनां विषये सामग्रीं प्रसारयन्ति, तेषां हिंसाकार्यं न्यायमिति च समर्थनं च कुर्वन्ति, अपि च विस्फोटक सामग्री निर्माणं कथं भवतीत्यपि प्रदर्शयन्ति। विदेशमन्त्रालयेन उक्तं यत् अस्मिन् मासे 17 दिनांके मदीनानगरे भारतीय तीर्थयात्रिकाणां दुःखद मृत्युघटनायाः अनन्तरं आन्ध्रप्रदेशस्य राज्यपालस्य न्यायाधीश एस अब्दुल नजीरस्य नेतृत्वे भारत सर्वकारस्य उच्चस्तरीय प्रतिनिधिमण्डलम् अद्य सऊदी अरब देशस्य यात्रां करिष्यति। भारतीय ऋतुविज्ञान विभागेन अण्डमान निकोबार द्वीपेषु लक्षद्वीपे तमिलनाडुराज्ये पुदुचेरी करैकलयोः च अत्यधिक वृष्टेः पूर्वानुमानं कृतमस्ति। विभागेन अद्य आन्ध्रप्रदेशस्य, केरलस्य, माहे लक्षद्वीपस्य च एकान्तस्थानेषु विद्युत्सहितं वज्रपातस्य अपि पूर्वानुमानं कृतम् अस्ति। इति वार्ताः।